एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः अर्थ संचार सूचना प्रविधि मन्त्रिणा डाक्टर युवराज खतिवडा विदेन ह्यो मन्त्रीपदा त्यागपत्रम् प्रदत्तमस्ति। अद्य शनिश्चर वासरतो राष्ट्रिय सभा सदस्यस्य पदावधेः समाप्तेः कारणेन नेपाल सर्वकारस्य मुख्य सचिवस्य माध्यमेन प्रधानमन्त्रिणः समक्षम् मन्त्रिणा डाक्टर खतिवडा विदेन त्यागपत्रम् प्रदत्तम् वर्तते। त्यागपत्रेण सह मन्त्रिणा डाक्टर खतिवडा विदेन स्वस्य कार्यकाले मन्त्रालयद्वये एव विहितायाः प्रगतेः विवरणमपि प्रस्तुतमस्ति। यः संचार सूचना प्रविधि मन्त्रालये अर्थ मन्त्रालये च आयोजिते प्रस्तापन कार्यक्रमे मन्त्री डाक्टर खतिवडा मन्त्रालयाभ्याम् प्रारब्धानि उचित कार्याणि नैरन्तर्यम् अवाप्स्यन्तीति विश्वासम् व्यक्तवान्। राष्ट्रपतिना विद्यादेवी भण्डारेण प्रधानमन्त्रिणः केपी शर्मा ओलिनः परामर्शे डाक्टर युवराज खतिवडा विदेन निर्व्यूढः अर्थ संचार सूचना प्रविधि मन्त्रालययोः कार्यभारः प्रधानमन्त्रिणा ओलिना वहनत्वेन निर्धारितो वर्तते। कोरोना विषाणुतो ह्य सहस्रम् शतत्रयम् चतुःपञ्चाशत् च जनाः मुक्ताः सन्ति। स्वास्थ्य जनसंख्या मन्त्रालयस्य नियमित संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता प्राध्यापकः डाक्टर जागेश्वर गौतमः ह्य एतेषाम् जनानाम् संक्रमणात् मुक्तेः प्राप्तेः पश्चात् अधुनावधि नेपाले पञ्चविंशति सहस्राणि पञ्चशतम् एकषष्टिश्च जनाः संक्रमणात् मुक्ताः सन्तीति अज्ञापयत्। ह्यो विहितेन त्रयोदश सहस्राणाम् षड्शतस्य अष्टात्रिंशतश्च निदर्शन परीक्षणेन अतिरिक्तेषु सहस्रे शतत्रय उनषष्ट्याम् च जनेषु संक्रमणम् पुष्टीभूतम् वर्तते। कोरोना विषाणोः संक्रमणेन ह्य चतुर्दश जनाः अम्रियन्त। एतदनुसारेण नेपाले कोरोना विषाणोः संक्रमणेन मृतानाम् जनानाम् पश्चात्तनि संख्या एकसप्तत्यधिक शतद्वयम् प्राप्तास्ति। प्रवक्ता डाक्टर गौतमः कोरोना संक्रमणस्य नियन्त्रणाय सर्वकारेण प्रकाशित निर्देशन मापदण्डानां वैपरीत्येन विस्तारितयोः भ्रमप्रवादयोः प्रभावम् उपेक्ष्य सर्वाणि निर्देशनानि अनिवार्यतः पालयितुम् अन्वरुणत्। मन्त्रालयेन विश्व स्वास्थ्य संघटनेन सह जनस्वास्थ्य क्षेत्रे अध्ययनानुसन्धानरतानां निकायानां निर्देशनानां संक्रामक रोग विशेषज्ञैः सह विहितस्य परामर्शस्य च पश्चादेव विभिन्नाः अनुरोध ज्ञापन सूचनाः प्रसार्यमाणाः सन्ति इति प्रवक्ता डाक्टर गौतमः असूचयत। चितवन जनपद प्रशासन कार्यालयेन परिपिधानम् ईषद् सहजीकृत्य अस्यैव भाद्रस्य एकत्रिंशम् दिवसम् यावत् वर्धापयितुम् निर्णीतमस्ति। परिपिधानावधौ प्रातः सप्तवादनात् अपराह्नस्य चतुर्वादनम् यावत् दैनिकोपभोग्य वस्तूनाम् आपणस्य सञ्चालनाय अनुमतिम् प्रदातुम् निर्णीतमिति सहायक प्रमुख जनपदाधिकारी नेत्र प्रसाद सुवेदी ज्ञापितवान्। कञ्चनपुर जनपद प्रशासन कार्यालयेन भाद्रस्य मासान्तं यावत् निषेधाज्ञायाः अवधि वर्धापितोऽस्ति। निषेधाज्ञायाः अवधौ प्रातः षड्वादनात् सायं पञ्चवादनं यावत् उद्योग व्यापार व्यवसाय यातायातानां सञ्चालनाय अनुमतिं प्रदातुं निर्णीतमिति कञ्चनपुर जनपद प्रशासन कार्यालयस्य प्रशासकीयाधिकृतः कल्पना भट्टः अज्ञापयत्। द्वितीय प्रदेश सर्वकारेण धनुषा जनपदस्य जनकपुर धाम्नः त्रयोदशवडा क्षेत्रस्य मुझेलियावर्तिनः मणिपाल शिक्षण महाविद्यालयस्य निर्माणाधीनं भवनं पञ्चशत शय्यानां कोरोना विशेष चिकित्सालयं कारयितुं निर्णीतं वर्तते। चिकित्सालयस्य निर्माणाय प्रदेश सर्वकारेण स्थापिते कोरोना विशेष कोषे 10 कोटयः रूप्यकाणि सञ्चेतुं निर्णीतम् अस्तीति द्वितीय प्रदेश सर्वकारस्य आन्तरिक विषय विधि मन्त्री ज्ञानेन्द्र कुमार यादवः अज्ञापयत्। शिक्षा विज्ञान प्रविधि मन्त्रिणा गिरिराजमणि पोखरेलेन वैकल्पिक प्रणाल्या शिक्षणाय शैक्षिक सत्रस्य रूपेण मान्यताम् प्रदाय एतस्याम् प्रक्रियायाम् सहभागिनो भवितुम् शिक्षकाः अभिभावकाः विद्यार्थिनश्च आहूताः सन्ति। मन्त्री पोखरेलः ह्य आयोजिते संगणकीय पत्रकार सम्मेलने कोरोना महामार्याः कारणेन शिक्षालयानाम् सञ्चालनस्य स्थितेः अभावात् वैकल्पिक प्रणाल्या शिक्षणाय मान्यता प्रदानार्थम् अवस्था सृष्टेति अगदत्। असौ बाध्यात्मक स्थितौ गृहे एव शिक्षा इति मान्यतया सर्वेषां कृते वैकल्पिक प्रणाल्या न्यूनतम शिक्षणस्य सुनिश्चिततायै अभियानम् सञ्चाल्यते इति अज्ञापयत्। काभ्रे पलाञ्चोक जनपदस्य 7 स्थानीय स्तरः कोरोना मुक्ताः सन्ति। त्रयोदशानाम् स्थानीय स्तराणाम् मध्ये मण्डन देवपुर नगरपालिका रोशी बेथानचोक पेमाल महाभारत खनिखोला चौरी देउराली ग्रामपालिकाश्च कोरोना मुक्ताः वर्तन्ते। गृहमन्त्रिणा रामबहादुर थापा विदेन बागलुङ जनपदस्य ढोरपाटन नगरपालिकायाः नवम वडा क्षेत्रस्य सुप्राङ स्थानस्य जलविप्लवग्रस्त क्षेत्रस्य अवलोकनेन सह ह्यः प्रभावितेभ्यः जनेभ्यः सहयोग सामग्र्यः प्रदत्ताः वर्तन्ते। सहयोग वितरणस्य अनन्तरं गृहमन्त्री थापा जनतायाः दुःखे सर्वकारः सहैव वर्तते इति भाषमाणः जलविप्लवेन मृतानां जनानां परिवारेभ्यः सर्वकारेण लक्षद्वयं रूप्यकाणि प्रदास्यन्ते इति उद्घुष्टवान्। अस्यैव भाद्रस्य सप्तदशे दिवसे जलविप्लव भूस्खलनाभ्यं बागलुङ जनपदस्य ढोरपाटन नगरपालिकायाः नवमवडा क्षेत्रस्य बोबाङ स्थाने मृतानां चतुर्दश जनानां मध्ये त्रयोदश जनाः सत्यापिताः सन्ति। घटनायां विलुप्तानां चतुर्विंशतेः जनानां अन्वेषणकार्यम् इदानीमपि विधीयमानं वर्तते। नेपाली कांग्रेस दलेन जलविप्लव भूस्खलनाभ्यं विस्थापितान् गृहपरिवारान् सुरक्षित स्थानेषु पुनसंस्थाप्य सहयोगं वितर्तुं मृतकानां गृहपरिवारेभ्यः क्षतिपूर्तिं दातुञ्च अभियाचितमस्ति। कांग्रेस संसदीय दलेन ह्यो विज्ञप्तिं प्रकाश्य जलविप्लव भूस्खलन जलमग्नता नाम क्षतिं न्यूनीकर्तुं तत्कालं उद्धार समूहं परिचालयितुं प्रभावकारी संयन्त्रं निर्मातुं संकटापन्न स्थानानि परिचित्य तत्रत्यान् नागरिकान् अन्यत्र सुरक्षित स्थानेषु व्यवस्थापयितुं च अनुरुद्धमस्ति। विश्वकोषागारेण नेपाले शिक्षण स्तरस्य सुधाराय एकाब्जस्य सप्तविंशतेः कोटीनां च रूप्यकाणां सहयोग प्रदास्यते। अर्थमन्त्रालये गतदिने आयोजिते कार्यक्रमे द्विपक्षीय संविदा पत्रे मन्त्रालयस्य सहसचिवेन श्रीकृष्ण नेपालेन मालदिव्स नेपाल श्रीलंका देशानां कृते विश्वकोषागारस्य निर्देशकेन फारिस हदात जर्भोस इत्यनेन च हस्ताक्षरितमस्ति। ललितपुरस्य पुलचोक स्थाने ह्यो रक्त मत्स्येन्द्रनाथस्य क्षमा पूजा विहिता। यात्राम् आदृत्य परह्य प्रहरीणां स्थानीयवासिनां च मध्ये भूतस्य संघर्षस्य पश्चात् सृष्टाम् असामान्य स्थितिम् समयितुं विभिन्नानां जातीय संघटनानां गुठी संस्थानस्य जनपद प्रशासन कार्यालयस्य च प्रतिनिधीनाम् उपवेशेन विहितस्य निर्णयस्य अनुसारेण संक्षिप्त विधिना रथयात्रां विधातुं क्षमा पूजा सम्पादितास्ति। परश्व द्वाविंशे दिवसे ज्योतिषिणा मुहूर्तान्वेषणस्य पश्चात् मत्स्येन्द्रनाथं निर्व्यवधानेन बुङ्मती स्थानं प्रापयितुं सहमति धृता वर्तते। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य वरिष्ठ नेता माधव कुमार नेपालः भाषते प्रतिवेशी राष्ट्रेषु स्थिता मतभिन्नता शान्तिपूर्ण रूपेण समाधातव्या। चाइना सेन्टर फर साउथ एसियन स्टडीज नेपाल इन्स्टिच्युट्स अफ इन्टरनेशनल रिलेशन्स संस्थयोः च्युहान विश्वविद्यालयस्य च संयुक्ता योजनायां ह्य आयोजिते कार्यक्रमे वरिष्ठ नेता नेपालः अभाषत भारतेन चीनदेशेन च सह कस्मिन्नपि विषये मतभिन्नतायां दृष्टायां सत्यां तथ्यानाम् आधारेण वार्तया समस्या समाधातुं शक्यते इति समाचारः।